अथ मोक्षयोगनाम अष्टादशोऽध्यायः अर्जुन उवाच सन्न्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् त्यागस्य च ऋषिकेश पृथक्केशी निषूदन श्रीभगवानुवाच कम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः।